सर्वेभ्यो नमः। अस्माकं प्रवर्तमानः विषयः अस्ति धातुगणः इति। गतवर्गे वयं गतवर्गे अपि तस्य पूर्ववर्गे अपि वयं धातुगणस्य विषये अभ्यासम् इत्युक्ते तत्र परिचयं परिचयं जातम् अस्माभिः। तत्र धातुगणस्य विषये किं किं ज्ञातवन्तः वयं, तत्र दशगणाः सन्ति, द्विसहस्र अधिकधातवः सन्ति, किन्तु ते धातवः वयं तान् धातवान् वयं किं कुर्मः, विभजनं कुर्मः। विभजनम् इत्युक्ते ग्रूपिङ्ग्, समूहं कृत्वा, तत्र समूहस्य नाम अस्ति गणः। तत्र दशगणाः सन्ति, दशगणानां नाम अपि तत्र अपि तत्र प्रथम गणे गणस्य नाम केवलं तत्र आदि प्रथमधातु गणे यः प्रथमधातुः अस्ति तदधिकृत्य नाम भवति, भूवादिगणे दिवादिगणे इति। अत्र गतवर्गे वयमपि एतद् दृष्टवन्तः, तत्र प्रत्येकगणौ विकरणप्रत्ययः अस्ति इति, अपि तत्र विकरणप्रत्ययः समानमस्ति कुत्रचित्, कुत्र समानमस्ति विकरणप्रत्ययः, कयोः धातयो मध्ये समानविकरणप्रत्ययः अस्ति, मूलरूपेण केवलम् अन्तिमरूपं यत् क्रियापदे भवति, कोऽपि वदति वा?
भवादिगणे तुदादिगणे।
हा, समीचीनं महोदय, धन्यवादः। अतः तत्र क्लेशः अस्ति यदि तत्र पश्यामः विकरणप्रत्यय अकार आ इति अस्ति चेत् तत् तादृशधातुः प्रथमगणे वा षष्ठगणे वा इति न वक्तुं शक्नुमः। अतः तत्र किं स्वीकृतम् अस्माभिः, तत्र किं दृष्ट्वा वयं वक्तुं शक्नुमः? गुणः दृष्ट्वा, तत्र गुणः कुत्र भवति, गुणः केवलम् अन्तिमवर्णे भवति वा उपधायामपि भवति? अतः धातोः अन्तिमवर्णः तत्र तत्र इकारः उकारः ऋकारः अस्ति चेत् तत्र गुणः भवति, अपि प्रथमगणे अस्ति चेत् अपि धातोः अन्तिमवर्णस्य पूर्ववर्णः, तस्य नाम किम्?
उपधा
इति। अतः तत्र पट् इति धातुः अस्ति चेत् तत्र टकारः अन्ते अस्ति, तत्र उपधा किम् अस्ति पट् धातोः मध्ये? पट् धातोः मध्ये उपधा किम् अस्ति? टकारः अन्ते अस्ति, तत्र पट् इति पदस्य निर्माणं कथं भवति, के के वर्णाः सन्ति तत्र पट् इति पदे? पकारः अकारः तदनन्तरं टकारः। टकारः इत्युक्ते अत्र अट् इति, तत्र अट् इति, तत्र किं व्यञ्जनं विना स्वरं वयं किमपि तस्य तत् न वक्तुं शक्नुमः खलु? स्वरः तु स्वतन्त्रया वक्तुं शक्नुमः।
I can only see the first page, na? Kr and all that. This, where is this which you are reading?
Haan, matra na patami, aham badami. Kim abhavatiti?
It is not there in the, this, no? Screen?
No. Idhanim, tatra kim api nasti, screen madhya kim api nasti.
Haan, okay.
Gata varge kim abhavatiti badami, bagini. गतवर्गे तत्र वर्गद्वयं वयम् एतत् पठितवन्तः, तत्र किं किं कृतवन्तः इति पुनस्मरणरूपेण
वदामि।
उपदापि तत्र अस्ति, धातुगणगुणः इति मध्ये तृतीयपुटे नम्बर् त्रि, तत्र गुणः इति अस्ति। तत्र क्लिक् करोतु, त्रि इति संख्या उपरि गुणः इति अस्ति खलु, तत्र 01
गुणः
तत्र क्लिक् करोतु। गणः इति विषयः
गर्जति
भगिनि तत्र हा क्षम्यतां भगिनि, तत्र गुणः तत्र उपधा इति अहं वदामि, उपधा इत्युक्ते
गणः इस् देयर् नाट् गुणः, गणः गणस्य नाम धात्वर्थः।
सत्यं गुणः अपि अस्ति तत्र, तत्र पश्य तत्र अन्य कोऽपि वदति वा उपधा किम् अस्ति पट् धातोः मध्ये? अकारः, हा अस्तु समीचीनं, टकारः अन्ते अस्ति अपि तस्य पूर्वम् अस्ति अकारः। वंशी सुधा भगिनी नमस्कारः, अत्र तत्र नमस्कारः भगिनी, अकारः उपधा अस्ति, अत्र पट् धातुः कस्मिन् गणे अस्ति? प्रथमे गणे, तत्र तत्र वक्तुं शक्नुमः वा तत्र गुणकार्यं भवति वा पट् इति धातोः क्रियापदं किं भवति? पठति इति, तत्र किमपि न वक्तुं शक्नुमः खलु, अतः तत्र गुणः अस्ति चेत् वक्तुं शक्नुमः तत् प्रथमे गणे वा अथवा षष्ठे गणे वा इति, किन्तु अत्र न वक्तुं शक्नुमः। अतः तत्र यदा न वक्तुं शक्नुमः तत्र किं लिखितमस्ति तत्र स्वरूपमहोदयेन, तत्र यदि न वक्तुं शक्नुमः तत्र तृतीयपुटे खलु खलु गुणः इति विषये कोष्टकम् अस्ति गुणः इति, तदनन्तरम् अन्ते अन्तिमभागे किं सप्तबिन्दु सप्तमबिन्दु तत्र किं उक्तवन्तः वयं, किं पठितवन्तः वयं, तत्र यदि धातोः अकारन्त अकारः उपधा मध्ये अस्ति तत्र पठति इति धातोः, तत्र वयं किमपि न कर्तुं शक्नुमः तत्र षष्ठगणे वा प्रथमे गणे वा इति, ततः किं कुर्मः तत्र स्त्रीलिङ्गे शत्रन्तरूपं पश्यामः, तत्र बालिका वदन्ती गच्छतिः गच्छति अथवा माता खादन्ती चिन्तयति इति, तत्र किं भुवादिगणे स्त्रियाम् अयं नकारः सर्वदा भवति परन्तु तुरादिगणे अयं नकारः वैकल्पिकः, अतः बालिका चलति चिन्तयति, तत्र चलति इति शत्रन्तरूपम् अस्ति इति कृत्वा तत् छल् इति धातु कस्मिन् गणे अस्ति? तुरादिगणे, किन्तु वदन्ति इति अस्ति अतः वदति इति वद् धातुः कस्मिन् गणे अस्ति? भुवादिगणे इति। अस्तु, एतत् प्रायशः यदि केवलं वदामः तत्र प्रायशः क्लेशः एव भवति, अतः तत्र वयं धातुगण अभ्यासः इति यत् पुटमस्ति तत्र गच्छामः, तत्र एकमेकं दृष्ट्वा प्रयत्नं कुर्मः, तत्र जानीमः न वा इति, तत्र क्लेशः भवति न वा इति, तत्र कस्मिन् गणे अस्ति इति। अस्तु, तत्र
महोदय FCC मध्ये क्लेशः अस्ति महोदय,
FCC मध्ये क्लेशः अस्ति वा? ओ क्षम्यतां महोदय,
मां तृतीयवारं बहिः निष्कासयति।
अहं पश्यन् अस्मि किमर्थं, किन्तु अन्येषां कृते क्लेशः अस्ति वा? सम्यक्तया श्रूयते वा?
वेब् मध्ये नास्ति,
इदानीं तु अहम् आप् मध्ये एव अस्मि। इदानीं श्रूयते महोदय, किञ्चित् एकनिमिषद्वयम् अनन्तरम्।
अस्तु, तत्र संख्या न चलति वा महोदय, तत्र संख्या अथवा सङ्गणकेन?
अहं सङ्गणकेन अस्मि इदानीं महोदय,
सङ्गणकेन
टेलिकाम् तु।
अस्तु 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 अस्तु, अहमपि सङ्गणकेन एव आगतवान् अत्र, अतः अत्र मम कृते अपि क्लेशः अत्र नास्ति, पश्यामि महोदय, किन्तु अन्येषां कृते नास्ति चेत् तदपि समीचीनम्। अस्तु अस्तु, तर्हि तत्र इदानीं तत्र चतुर्थपुटे यत् इदानीम् आरम्भं कर्तुम् इच्छामः, धातुगण अभ्यासः इति। अस्तु, तर्हि तत्र एतत् कुर्मः, किन्तु तस्य पूर्वं एकवारं तत्र सर्वे तत्र पश्यन्तु, तत्र एकवारं सर्वे पुनस्मरणं कुर्मः. तत्र प्रथमे गणे विकरणप्रत्ययः कः?
भूवादिकः
अकारः. तत्र केवलं मूलरूपं मास्तु, अन्तिमरूपं. तत्र कोष्टकमस्ति खलु, तत्र द्वितीये अथवा द्वितीये धातुगणः अथवा धातुगणपरिचयः, तत्र धातुगणपरिचयः इति पुटे विकरणप्रत्ययस्य आकृतिः इति अस्ति. हा अस्तु. ओ पुनः रघुवीरानन्दमहोदय गतवान्. ओ किं कर्तुं शक्नुमः. अस्तु, तदनन्तरम् अदादिगणे किमस्ति विकरणप्रत्यय किमस्ति? तत्र
नास्ति.
तत्र नास्ति. तदनन्तरं तृतीये गणे जुहोत्यादिगणे
तत्तु नास्ति.
तत्रापि नास्ति. अपि चतुर्थे गणे दिवादिगणे यकारः. अत्र यकारः अस्ति चेत् तत्र कुत्रापि क्लेशः भवति वा? अन्यत्र यकारः आगच्छति वा? चुरादिगणे अय इति अस्ति, किन्तु तत्र अय इति अस्ति, अतः यकारः अय इति. तत्र अकारः पूर्वम् अस्ति चेत् वक्तुं शक्नुमः, अस्तु तद् दिवादिगणे न किन्तु चुरादिगणे इति. अस्तु, तदनन्तरं स्वादिगणे तत्र विकरणप्रत्ययः अस्ति?
नो.
अस्तु, तुदादिगणे जानीमः, बहु चिन्तितवन्तः, अकारः एव विकरणप्रत्ययः. तदनन्तरं रुधादिगणे नकारः. तनादिगणे ओकारः. क्रयादिगणे न इति. अपि अन्तिमगणे तत्र अय इति अस्ति. अस्तु, समीचीनम्. हा, अपि तत्र अहं सङ्ख्या न जानामि, किन्तु तत्र दशगणाः सन्ति, अपि 2000 धातवः सन्ति. तत्र वार्ता एतादृशी नास्ति, नाम तत्र दशगणाः सन्ति, अपि 2000 धातवः सन्ति चेत्, अतः तत्र किं 200 धातवः प्रत्येकगणे अस्ति इति तादृशः नास्ति. भुवादिगणे अनेकाः धातवः सन्ति इति मन्ये, अपि अहं न जानामि कस्मिन् गणे बहु न्यून धातवः सन्ति इति, किन्तु सर्वं समानं नास्ति तत्र. अतः तत्र न वक्तुं शक्नुमः कः प्रसिद्धः कः गणः इति. अस्तु, तर्हि इदानीं तत्र आरम्भं कर्तुं शक्नुमः. एकमेकं दृष्ट्वा वयं प्रयत्नं कुर्मः तत्र किं किम् अस्ति, कस्मिन् गणे अस्ति इति प्रयत्नं कर्तुं आरम्भं कुर्मः. अस्तु, तर्हि तत्र शोभा भगिनी आरम्भं करोति वा तत्र?
आम् महोदय. धातुगणाभ्यासः तत्र कोष्टके धातुः क्रियापदं गणः गणस्य नाम अपि धात्वर्थः दत्तानि. तत्र प्रथम उदाहरणमस्ति गृज् इति धातुः. तत्र अन्तिमरूपं गर्जति इति भवति. तत्र किमर्थं भवति इति वयम् अग्रे प्रयत्नं कुर्मः. तत्र उपधायां ऋकारः अस्ति. ऋकारस्य गुणः अर् इति. अतः तत्र ग योगः अर् योगः ज गर्ज. अधुना तत्र गर्जति इति भ्वादिगणे तत्र प्रत्ययः अन्तिमरूपम् अकारः. गर्ज योगः अकारः योगः ति गर्जति. धात्वर्थः अर्थि शब्दे इति.
शब्दे इत्युक्ते शब्दं करोति इति. गर्जति इति शब्दं करोति खलु, सिंहः गर्जति इति. हा तत्र पाणिनेः रूपम् एतद् एतादृशम् अस्ति. तत्र यदि अष्टाध्यायी डाट् काम् गच्छति तत्र धातोः माला अस्ति खलु, तत्र पश्यति चेत् तत्र गृज् शब्दे इति भवति. तत्र इत्युक्ते शब्दे तस्य अर्थः कुत्र अस्ति, शब्दं शब्दम् इति तस्य अर्थः इति. तत्र सप्तमी रूपमेव भवति, सप्तमी रूपमेव तत्र पाणिनेः सूत्रे मध्ये तत्र सप्तमी रूपं भवति अर्थस्य. अतः तत्र सर्वं शब्दे इति शोके इति तादृश सप्तमीभक्तिरूपं रूपं दत्तमस्ति. गर्जति शब्दं
शब्दरूपस्य प्रसङ्गे गृज् धातोः उपयोगं भवति खलु महोदय?
हा हा, तत्र सिंहः गर्जति, अतः तत्र अर्थः कः, कोऽपि शब्दः इति. तावदेव तावदेव. तत्र बहु किमपि न वदन्ति तत्र पाणिनिः सूत्रे धातुसरणि मध्ये, केवलं बहु लघु पदम् अथवा हा भवति लघुवाक्यमेव भवति. हा एतदेव पाणिनेः शैली खलु, सर्वं लघुरीत्या वक्तव्यम् इति. अतः तत्र सः तस्य पदस्य अर्थः कः इति तस्य अन्वेषणं पुनः करणीयमस्ति.
अस्तु महोदय.
हा अस्तु. तत्र भगिनि तत्र एकवारं तत्र केवलं वदतु तत्र अन्तिमवर्णः अपि उपदा किम् अस्ति इति, तादृशं कुर्मश्चेत् सुलभं भवति अग्रे.
अन्तिमवर्णः जकारः, उपधा ऋकारः.
ऋकारः इति तावदेव समीचीनं. हा
अग्रिमं करोमि
वा? हा करो करोतु भगिनि एकनिमिषात्. तत्र सर्वे यदि न जानन्ति तत्र एकवारं पश्यामः कुत्र कुत्र अस्ति. तत्र द्वितीये पुटे धातुगणपरिचयः इति पुटे तत्र विकरणप्रत्ययस्य कोष्टकम् अस्ति. अपि तृतीये पुटे गुणः इति पुटे तत्र गुणः के के स्वराः तत्र ईकारः वा उकारः वा ऋकारः अपि तस्य स्वरस्य कः गुणः इति अपि तत्र कोष्टकमस्ति यदि न स्मरन्ति चेत्. अपि प्रथमे गणे एव गुणः भवति इति तदपि स्मर्तव्यम्. अस्तु अग्रे पठतु भगिनि.
आं महोदय. अग्रे शुच् इति धातुः, तत्र अन्तिमवर्ण चकारः अपि उपधायां ह्रस्व उकारः. अपि अन्तिम रूपं शोचति इति भवितव्यं. तत्र तत्र उपधायां ह्रस्व उकारः इति कृत्वा शो ओकारः भवति उकारस्य, शोच् इति भवति. अन्तिमरूपं शोचति इति अस्ति इति कृत्वा शोच् योगः आयोगः ति योजनामः चेत् योजनं कुर्मः चेत् शोचति इति भवति. अतः भवादिगणे भवादिगणस्य धातुः अपि च धातु अर्थः अस्ति शोके.
शोके इति समीचीनं भगिनि. अतः तत्र के के विषयाः सन्ति, तत्र विकरणप्रत्ययः अकारः अस्ति, अपि उपदा तत्र चकारः अन्तिमवर्णः चकारः अस्ति, तत्र गुणः न भवति. अपि चकारस्य पूर्व उपदा अस्ति उकारः, उकारस्य गुणः भवितुम् अर्हति, अपि अत्र भवति, तत् शोच् इति भवति. तदनन्तरं विकरणप्रत्यय अकारः, अतः भुवादिगणे इति. अस्तु समीचीनं भगिनि. अन्यदपि करोति वा?
आम् आं महोदय. तत्र तिल् इति धातुः अन्तिमरूपं तिलति इति, अपि च धात्वर्थः स्नेहने इति. स्नेहने तत्र उपधायां उकारः ह्रस्व उकारः अस्ति, गुणं भवितुम् अर्हति. अपि च अन्तिमवर्णः लकारः, तत्र किमपि इक् वर्णः नास्ति, प्रसक्तिः नास्ति. तत्र अन्तिमरूपं तिलति इति अस्ति इति कृत्वा तत्र किमपि गुणः गुणस्य प्राप्तिः न भवति.
विकरणप्रत्ययः अस्ति,
विकरणप्रत्ययः तत्र नास्ति एव.
अस्ति खलु तिल् इति अस्ति, तदनन्तरं
तिलति, क्षमतां तत्र
तिल् योगः अकारः योगः
अकारः योगः अति क्षमतां महोदय
नो चेत् तिल्ति इति भवति,
तिल्ति इति भवति, तिल् योगः विकरणप्रत्ययः अकारः योगः ति तिलति
विकरणप्रत्यय अकारः अस्ति इति कृत्वा तत्र किं चिन्तनम् अस्माकं चिन्तनं किं प्रथमे गणे अथवा षष्ठे गणे इति
प्रथम अथवा षष्ठे तत्र गुणः भवति चेत् प्रथमगणे भुवादिगणे एव भवितुम् अर्हति
किन्तु अत्र न भवति अतः तुदादिगणे तुदादिगणे अस्ति समीचीनं भगिनि समीचीनं धन्यवादः अस्तु तत्र अस्माकं कार्यं किं तत्र धातुः अपि पश्यामः क्रियापदमपि पश्यामः क्रियापदे पदं दृष्ट्वा विकरणप्रत्ययः कः इति तत् अवगच्छामः तदनन्तरं विकरणप्रत्ययम् उपयुज्य कस्मिन् गणे अस्ति इति निर्णेतुं प्रयत्नं कुर्मः यदि क्लेशः अस्ति चेत् तत्र गुणः अस्ति न वा इति पश्यामः अस्तु ललिता भगिनी समीचीनं वा इदानीं भवती प्रथमवारम् आगतवती तत्र किं कुर्मः इति अवगच्छति वा इदानीं तत्र ललिता भगिनि अस्तु अस्तु
हलो मै ऐ सडन्लि लास्ट् कनेक्षन्
अस्तु वयं किं कुर्मः इत्युक्ते तत्र क्रियापदम् अपि धातु द्वयमपि दृष्ट्वा कस्मिन् गणे धातुः अस्ति इति निर्णयं कुर्मः अस्तु समीचीनम् अस्तु अस्तु अग्रे तत्र उषा भगिनी अग्रे करोति वा
आम् महोदय
इदानीं चि चि इति धातुः
चि चि धातुः अस्ति क्रियापदं चिनोति
तत्र कर्णप्रत्ययः कः
धातवत् अर्थः अस्ति चयने चिनोति नो तत्र दृष्टमस्ति नो स्वादिगणे अस्ति पञ्चमगणे
हा नो इति विकरणप्रत्ययः तत्र तत्र अन्य तत्र
श्नु इति विकरणप्रत्ययः अस्ति शकारस्य लोपः भवति संज्ञा नो मूलरूपं तस्य विकरणप्रत्यय आकृतिः अस्ति नो
नो
अतः चिन्नोति इति भवति
हा अस्तु तत्र नु इति विकरणप्रत्यय एव इति वा अथवा तत्र ओकारः एव विकरणप्रत्यय इति वा अत्र अत्र क्लेशः नास्ति खलु ओकारः इति न वक्तुं शक्नुमः खलु नु एव समीचीनं खलु अत्र
आम्
महोदय अतः तत्र क्लेशः नास्ति तत्र स्वादिगणे एव अस्ति इति अस्तु समीचीनं भगिनि अस्तु अग्रिमम्
महोदय महोदय
इदानीं तत्र प्रतिध्वनिः अस्ति
सर्वे म्यूट् मध्ये तिष्ठन्ति चेत् सम्यक् भवति इति
चिन्तयामि हा 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 उषा भगिनी इदानीं समीचीनम् अस्ति वा
आं महोदय
अस्तु वदतु भगिनि तत्र
शुष् शुष् इति धातुः अस्ति क्रियापदं शुष्यति धातवर्थः अस्ति शोषणे शुष्यति शुष्यति
तत्र विकरणप्रत्ययः अन्तिमरूपं किं तत्र विकरणप्रत्यय क्रियापदे विकरणप्रत्ययस्य रूपं किं न केवलं तत्र हा यकारः यकारः अस्ति अत्र
यकारः दृश्यते तत्र विभक्ति अस्ति ष्यन् षकारस्य नकारस्य इत्संज्ञा भूत्वा तस्य लोपः भवति आकृतिः तस्य आकृतिः य एव तिष्ठति अतः क्रियापदम् अस्ति शुष्यति स्वादिगणः अस्ति
दिवादिगणः तत्र समीचीनं भगिनि अपि दिवादिगणे अस्ति हा दिवादिगणे अस्ति चतुर्थे गणे हा अपि अग्रिममपि करोतु भगिनि दिश् इति
दिश् दिश् धातुः अस्ति दिशति क्रियापदम् अतिसर्जने इत्युक्ते किं महोदय अतिसर्जने
द्रष्टव्यं भगिनि हा अहं न स्मरामि कोऽपि स्मरति वा
दाने त्यागे इति अस्ति महोदय
दाने त्यागे इति वा अतिसर्जने अस्तु दिशति अस्तु
अतिसर्जने दिशति दिशति तुदादिगणे अस्ति इति मन्ये महोदय किमर्थम् इत्युक्ते भवादिगणे न भवति तत्र तुदादिगणे विकरणप्रत्ययः अस्ति श एव तस्य लोप अनन्तरम् अ एव तिष्ठति तत्र
सत्यम् अपि तत्र अकारः तिष्ठति अपि विकरणप्रत्ययः अकारः अस्ति अपि गुणकार्यं भवति अत्र
न महोदय तत्र गुणकार्यं न भवति
अतः तत्र वयं जानीमः गुणकार्यम् अकारविकरणप्रत्ययः अस्ति अपि गुणकार्यं न भवति चेत् तद्
तुदादिगणे
अस्ति इति हा अस्तु भगिनी तत्र दिश् इति धातुः तस्य अर्थः अस्ति आङ्ग्लभाषायां टु पायिण्ट् औट् टु शो टु ग्राण्ट् टु अलौ इति अस्तु अग्रे गीताञ्जलि भगिनी अग्रे पठति वा
आम् महोदय विल् विल् इति धातु अस्ति वेलयति इति अन्तिम क्रियापदं रूपम् अस्ति विल् इत्युक्ते क्षेपे अत्र विल् वेलयति द्वयोः मध्ये अन्तर अय आगच्छति मध्ये ति वेलयति अपि च विल् वे भवति वि वे भवति
अत्र विकरणप्रत्ययः कः
अत्र अय आगच्छति चेत् विकरणप्रत्यय अय अय आगच्छति चेत् चुरादिगणे अस्ति
चुरादिगणे अस्ति समीचीनम् अत्र
चुरादिगणे गुणकार्यमपि भवति
हा सत्यं भगिनि हा अस्ति इति किन्तु तत्र अय आगच्छति चेत् तत्र गुणकार्यम् अस्ति न वा इति किमपि ज्ञातुं शक्नुमः किन्तु तद् द्रष्टव्यं नास्ति केवलं यदि अस्माकम् इच्छा अस्ति केवलं निर्णयः कस्मिन् गणे इति अस्ति इति तस्मिन् कार्ये यदि अय विकरणप्रत्यय अस्ति इति निर्णयं भवति चेत् तत्र कोऽपि क्लेशः नास्ति खलु चुरादिगणे एव अस्ति समीचीनं भगिनि अस्तु तत्र विल् इत्युक्ते तत्र टु थ्रो टु सेण्ड् फोर्त् इति भगिनि अस्तु अग्रे भगिनि
मी दीर्घ मी मी इत्युक्ते हिंसायाञ्च हिंसायाञ्च इति तु अहं न अवगतं हिंसा इति अहम् अवगतं हिंसायाञ्च इत्युक्ते किं
मी इति तत्र मी इति नवमे गणे अस्ति तत् द्रष्टव्यमस्ति कोऽपि अन्य कोऽपि वदति वा
हिंसा इत्यस्य सप्तमी विभक्तौ अस्ति
हिंसायां तत्र मी
हिंसा पदस्य उपयोगे इति
हा अस्तु हा तत्र आम् आम् मी तत्र
वायोलेट् टु किल्
टु किल् टु किल् इति अस्ति
टु किल् टु लेसन् वायोलेट्
हा समीचीनं भगिनि अस्तु हा अस्तु तर्हि तत्र किं भवति तत्र विकरणप्रत्ययः
मी ति द्वयोः मध्ये न आगच्छति न इति विकरणप्रत्यय अस्ति न क्रियादिगणस्य
विकरणप्रत्ययस्य
अन्तिम आकृति अस्ति अतः मी इति धातु अत्र क्रियादिगणे
हा समीचीनं भगिनि समीचीनम् अस्तु अग्रिममपि करोतु तत्र कृष् इति
कृष् अत्र कृष् कृष् इत्युक्ते विलेखने अत्र कृष् अपि च ति किमपि विकरणप्रत्यय न आगच्छति केवल अ अकार आगच्छति मध्ये अ आगच्छति योगः कृषति अकार आगच्छति अकार इत्युक्ते तुदादिगणे एव अत्र कृष् कर्षति न भवति गुणकार्यं न भवति कृष् 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 इति तिष्ठति यत अतः
तत्र अस्तु समीचीनं भगिनि तत्र गुणकार्यं कुत्र भवितुम् अर्हति न भवति किन्तु कुत्र भवेत्
यदि अत्र गुणकार्यं भवति तदनन्तरम् उपधा
भवति उपधा अस्ति किं
उपधा
ऋकारः उपधा अस्ति ऋकारः
गुणकार्यं
भवति चेत् तत्र अर् इति भवति किन्तु तत् केवलं ऋकारः एव तिष्ठति समीचीनं भगिनि अतः तत् षष्ठे गणे नाम तुदादिगणे अस्ति इति समीचीनं भगिनि अस्तु तत्र कृष् इति जानीमः तत्र टु प्लो इति खलु समीचीनम् अस्तु अग्रे तत्र नरेश् महोदय अग्रे पठति वा अद्य भवती भवान् उक्तवान् न केवलं शृणोमि क्षम्यतां वक्तुम् इच्छति वा नो चेत् अस्तु अस्तु कः उक्तवान् केवलं शृणोमि इति
मधुमहोदय
ओ मधुमहोदय अस्तु 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 क्षम्यतां महोदय नरेश महोदय क्षम्यताम् अस्तु अस्तु अग्रे पठतु महोदय क्षम्यतां
क्रियापदं बिभेति बिभेति अस्ति अत्र तु जुहोच्चगण अस्ति
तत्र समीचीनं महोदय तत्र कथं तत्र विकरणप्रत्ययं दृष्ट्वा वदामः वा तत् जुहोत्यादिगणे अस्ति इति अतः तत्र जुहोत्यादिगणे गणस्य लक्षणं किम्
धातुः पूर्वम् एक वर्णः आगच्छति
हा नूतनं तत्र द्वित्वं द्वित्वं तादृशरूपं भवति इति द्वित्वं भवति इति समीचीनं महोदय समीचीनं अतः तत्र भी इति बिभेति इति रूपं भवति तत्र बिभेति इति रूपं तत्र अतः तत् जुहोत्यादिगणे तृतीये गणे अस्ति इति समीचीनं महोदय अस्तु तत्र बिभेति इत्युक्ते तत्र टु फियर् अथवा टु बि एङ्क्शियस् अबौट् इति अस्तु अग्रिमं महोदय
क्रियापदं किमस्ति किमस्ति चिन्तयामि विकरणप्रत्यय नास्ति अतः सप्तमं रुधादिगणम् अस्ति
सप्ते समीचीनं महोदय तत्र तत्र नकारस्य आगमनम् अस्ति हिम् इति तत्र अहं चिन्तयामि अपि तत्र सप्तमे गणे अस्ति इति कोऽपि दृष्ट्वा वदति वा तत्र तत् समीचीनम् इति वा हिंसति?
आम् महोदय, हृदादिगणेव अस्ति.
हृदादिगणेव अस्ति, अस्तु समीचीनं. हा अस्तु, अग्रे महोदय सीव् इति इदानीं
सेव् धातु अस्ति. पदं सीव्यति, सीव्यति. अत्र विकरणप्रत्यये यकारः आगच्छति, अतः दिवादिगणः अस्ति.
तत्र क्लेशः एव नास्ति, यकारः एव विकरणप्रत्यये अस्ति चेत् क्लेशः एव नास्ति. समीचीनं महोदय, अस्तु. अग्रे वंशीसुता भगिनी अग्रे पठति वा?
आं महोदय, एकनिमिषं महोदय. सिव् हिंस भवति वा महोदय? सिव् भवति, धू इति धातु, धू अर्थः धात्वर्थे अस्ति कम्पने. धातु भवति, क्रियापदं भवति धुनाति. तत्र अहं चिन्तयामि विकरणप्रत्यय न आगच्छति, महोदय. केषुचित् सूत्रेण उकारः दीर्घ उकार ह्रस्व उकार भवति, अहं न जानामि. तत्र धू योगः न योगः ति, तत्र न इति क्रयादिगणे नवमगणस्य विकरणप्रत्ययः भवति, अतः क्रीणाति, क्षम्यतां धूनाति इति रूपं भवति. अतः नवमगण क्रयादिगणधातु भवति महोदय.
समीचीनं भगिनि. अत्र वार्ता किं भगिनि, वयमपि सर्वे सर्व किं किं एकमपि सूत्रं न जानीमः अत्र. केवलं तत्र एतद् परिचयरूपेण तत्र धातोः गणाः सन्ति इति एकवारं परिचयः भवति चेत् तत्र गीतासोपाने किमर्थम् अनेकानि रूपाणि दत्तानि सन्ति, किमर्थम् एकमेव रूपं नास्ति लकारनिर्माणे इति, तस्य स्पष्टीकरणार्थम् एतत् कुर्मः तावदेव. अतः तत्र केवलं नाग् इति विकरणप्रत्यय इति तावदेव अस्माकं ज्ञानम् इदानीं तावदेव. वदतु भगिनि.
महोदय, अत्र धू इति दीर्घ ऊकारान्त अस्ति, किन्तु अष्टाध्यायी मध्ये धातुरूपं धू
इति दत्तं वा भगिनि? अस्तु अस्तु, तर्हि प्रायशः तत्र कुत्रचित् मुद्रणदोषः प्रायशः अस्ति इति.
अहं चिन्तयामि कोऽपि सूत्रमस्ति तत्र
परिवर्तनमपि.
अस्तु अस्तु अस्तु, समीचीनम्. अस्तु,
यदा यदा अहं न जानामि तदा अहं सूत्रं
तत्र सत्यं सत्यं तत्र सर्वं सूत्र किं सूत्राणि एव नियन्त्रणं कुर्वन्ति खलु, कस्य परिवर्तनं कुत्र परिवर्तनं भवति अपि कस्मात् किं भवति इति तत्र नियन्त्रणं सूत्रेण एव भवति खलु, सूत्रैः एव भवति. अतः यदि न जानीमः तत्र प्रायशः किमपि सूत्रमेव अस्ति, तद् समीचीनमेव अस्ति. सत् समीचीनं भगिनि. अस्तु, अग्रे तत्र भगिनि.
आं महोदय, तत्र हिंस् इति धातु पुनः आगच्छति. तत्र हिंसयति इति क्रियापदं भवति, हिंसायाम् इति अर्थः भवति. तत्र अहं चिन्तयामि उपधा अनुस्वारः अस्ति वा महोदय? तत्र अतः विकरणप्रत्यये ऐ आगच्छति, अया इति आगच्छति. चुरादिगणे भवितुम् अर्हति, परन्तु तत्र यदि चुरादिगणे अस्ति भूत्वा हि गुणकार्यं भवति, परन्तु अनुस्वारः अस्ति, अनुस्वारः पृथक् वर्णः अस्ति, अतः उपधा अनुस्वारः भवति, तदर्थं गुणकार्यं न भवितुम् अर्हति महोदय.
प्रायशः तादृशम् अस्ति भगिनि. अस्तु,
यतोहि
उपधा एक नास्ति,
उपधा इक् नास्ति, अनुस्वारः अस्ति, अनुस्वारः पृथक् वर्णः अस्ति, अतः अनुस्वारः गुणकार्यं न भवितुम् अर्हति. अतः
सत्यं भगिनि, तत्र हकारस्य अनन्तरम् ईकारः अस्ति, किन्तु तदनन्तरम् अनुस्वारः
अस्ति,
अतः तत्र प्रायशः बाधा भवति तत्र गुणकार्ये इति प्रायशः तादृशं.
महोदय,
वदतु भगिनि.
धू इति धातु अस्ति महोदय,
तत्र दीर्घ उकारः वा?
दीर्घ उकार अस्ति, तत्र धुनाति इति अस्ति, धुनाति.
ओ, अतः तत्र धू इति अत्र
अस्ति, धुनाति इति भवति, किन्तु धू इति धातु अस्ति.
अस्तु, एकनिमिषं भगिनि. अतः तत्र धातोः मध्ये दीर्घ उकारः,
किन्तु पदं क्रियापदे
ऋत्व उकारः. अस्तु, समीचीनं भगिनि, धन्यवादः. अस्तु अस्तु,
अपि च क्रयादि,
क्रयादिगणे एव वयं चिन्तितवन्तः, न इति विकरणप्रत्ययः. समीचीनम्, अस्तु,
धन्यवादः भगिनि.
अस्तु, तत्र
तत्र दशमगणः भवति, चुरादिगणे भवति महोदय, हिंस इति.
हिंस इति, चुरादिगणे अस्ति. समीचीनं भगिनि, समीचीनम्, अस्तु, धन्यवादः. अस्तु, इदानीं तत्र शीतल भगिनी अग्रे करोति वा? शीतल
भगिनी,
इदानीं तत्र क्षुद् इति दातु.
क्षुद् क्षुदेषणे क्षुणति इति रूपम् अस्ति. अहं चिन्तयामि युवत्यादिगणे अस्ति.
कस्मिन् गणे? तत्र
युवत्यादिगणे तदा द्वित्वं भवति.
तत्र कुत्र द्वित्वं भवति? तत्र क्षु इति तस्य द्वित्वं तु न भवति खलु? तत्र नकारः आगच्छति खलु भगिनि, तत्र खलु? अतः तत्र अहं चिन्तयामि तत्र किं क्षुद् इति सम्पेषणे
क्षुत् इति अस्ति आसीत् महोदय, अनन्तरं क्षुद् इति. तत्र नकारः मध्ये अस्ति, रुधादिगणे एव.
रुधादिगणे मध्ये नकार आगच्छति.
समीचीनं भगिनि, अतः तत्र क्षुणति इति, तत्र नकार अस्ति इति दृष्ट्वा तत्र प्रायशः तत्र सः एव विकरणप्रत्यय अपि तत्र क्ष इति अस्ति इति कृत्वा तत्र किं क्ष इति अस्ति चेत् तत्र णत्वं भवति खलु, णत्वं भवति खलु, नकारः णकारः भवति इति कृत्वा तत् प्रायशः तत् तत्र रुदादिगणे अस्ति इति चिन्तनं चिन्तितम्. तद् किन्तु इदानीं यत् ज्ञानम् अस्माकम् अस्ति, तत्र नकारः अस्ति, अपि णत्वम् अपि जानीमः, क्षु इति तत्र किं तत्र षकारः अस्ति खलु, णत्वं कदा भवति? रेपः ऋकारः अपि षकारः, अतः तत्र नकारः णकारः भवति, अतः तत् रुदादिगणे अस्ति इति चिन्तितुं शक्नुमः. समीचीनं भगिनि, अस्तु, अग्रे तन् इति दातुः. तत्र विकरणप्रत्यय क्रियापदमस्ति तनोति, विकरणप्रत्यय अस्ति किम्?
ओ
ओ इति अस्ति.
अष्टमगणे
तत्र किं यदि नाम जानीमः तत्र कोऽपि क्लेशः नास्ति खलु तत्र तन्निति तनादिगणे एव अस्ति खलु अस्तु अग्रे भगिनि
संस्पर्शने अर्थः अस्ति स्पृशति
विकर्णप्रत्ययः अस्ति
स्पृशति इति तुदादिगणे
अस्ति समीचीनं भगिनि अस्तु अग्रे अपि तत्र
तर्कयति अय इति तिष्ठति तर्कयति
चुरादिगणे अस्ति समीचीनं भगिनि तर्कयति इति चुरादिगणे इति समीचीनम् अस्तु तत्र एतावत् कः अथवा का न कृतवती एतावत् तत्र ललिता भगिनी कर्तुम् इच्छति वा प्रयत्नं करोति वा ललिता भगिनी
ऐ केन् अण्डर्स्टाण्ड् ओन्लि फार् एक्साम्पल् स्पृश् स्पृशति अण्ड् संस्पर्शने आफ्टर् देट् वै इट् इस् उदादिगणे दाट् ऐ केनाट् अण्डर्स्टाण्ड्
ऐ थिङ्क्
दिस् क्लास् ऐम् इट् इस् as do I am in
sorry Bagni, I can't hear you.
Hello?
Huh?
See, it's like I am in KG and you all are doing really fixed standard.
No.
I don't know what it is.
तत्र केवलं गतवर्गे किञ्चित् कृतवन्तः वयमपि किमपि न जानीमः किन्तु गतवर्गे किञ्चित् कृतवन्तः तावदेव अस्तु अद्य केवलं शृणोतु भगिनि अग्रिमवर्गे प्रायशः सुलभं भवति इति मन्ये
अस्तु
सत्यं अस्तु हा तत् करोतु सत्यमेव समीचीनं भवति भगिनि अस्तु अतः तत्र अन्ये कोऽपि प्रयत्नं कर्तुम् इच्छन्ति वा
महोदय अहम् अस्मि
सत्यं सत्यं रघुवीरानन्द महोदय अस्तु करोतु महोदय तत्र इदानीं तर्कयति इति कृतम् इदानीं दु इति अस्ति
महोदय सर्वे किञ्चित् म्यूट् अस्ति चेत् ईको भवति किमर्थं
तत्र हा इदानीं प्रायशः नास्ति महोदय समीचीनं
इदानीं स्पष्टं स्पृशति वा तर्क महोदय किं
तत् स्पृश् अपि कृतं तर्क् अपि कृतम् इदानीं दु इति
दु धातुः तस्य दुनोति इति रूपमस्ति महोदय तत्र किमपि गुणः विकरणप्रत्यये तु किमपि गणः किम् इति
प्रथमतया विकरणप्रत्ययः कः इति पश्यामः तत्र दु इति अस्ति क्रियापदे दु नोति इति अस्ति अतः धातुः अनन्तरम् अपि ति पूर्वं किम् अस्ति
नकारः अस्ति महोदय
केवलं नकारः न तत्र नो इति अस्ति नो इति अस्ति दु योगः नो अतः तत्र नो इति विकरणप्रत्ययः तदस्ति स्वादिगणः स्वादिगणः पञ्चमगणे अस्ति दु इति धातुः. समीचीनं महोदय. अग्रे तत्र भ्रू इति इदानीं
दु योगः नो योगः ति दुनोति इति रूपं भवति महोदय.
हा सत्यं. हा इदानीम् अग्रे भ्रू इति अग्रे
अग्रे भ्रू तत् भरति इति लौकिकरूपम् अस्ति महोदय धातुतः. ऋकारः तत्र ति ति पूर्वम् अर् अस्ति
अस्ति भवति अर् इति भवति अर्
प्रायः ऋकारः तत्र गुणः भवति.
तत्र अर् इति अस्ति खलु महोदय. तत्र भ भ अनन्तरं ऋकारः अस्ति धातोः मध्ये. भ योगः ऋकारः अपि क्रियापदे किम् अस्ति? भ योगः अर् योगः अकारः
योगः
योगः ति. अतः अकारः तु अस्ति अत्र ति पूर्वं
द्वादिगणे
अस्ति. हा गुणकार्यम् अस्ति अपि विकरणप्रत्यय अकारः अस्ति इति कृत्वा प्रथमे गणे अस्ति इति. समीचीनं महोदय. हा अग्रे तत्र तत्र या इति तत्र
प्रायः किमपि विकरणप्रत्ययं न दृश्यते.
नास्ति नास्ति. अतः तत्र किं तत्र प्रायश अदादिगणे
अदादिगण वा ज्योतिगणे वा अपि भवितुम् अर्हति.
किन्तु तत्र कथं जानीमः
जुहोत्यादिगणे
नास्ति
नास्ति. किमर्थं चेत् तत्र द्वित्वं नास्ति.
हा द्वित्वं नास्ति. हा अतः तत् अदादिगणे अस्ति इति.
अदादिगणः एव प्रायः.
हा अदादिगणे अस्ति या याति इति. अस्तु अग्रे नीति
नीति महोदय ति ति पूर्वम् अय अस्ति. नीति नय इति.
किन्तु तद् गुणं नास्ति खलु. तत्
तद् गुणं तु नास्ति महोदय.
हा तत् गुणं तु नास्ति.
अकारः तु अस्ति अतः
तत्र ई योगः अकारः तत्र किं यण् सन्धि इति कृत्वा अकारः अकारः अतः तत्र अतः तत्र तत्तु अकारः एव विकरणप्रत्ययः इति चिन्तयित्वा तत् तुदादिगणे अस्ति इति मन्ये खलु. नियति
अकारः
अकारः क्षम्यताम् अकारः एव क्षम्यतां नियोगः अकारः क्षम्यताम्. अतः तद् कस्मिन् गणे अस्ति? भुवादिगणे एव अस्ति. हा समीचीनं समीचीनं. हा 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 समीचीनम् अहम् उक्तवान् किन्तु हा समीचीनं. हा अस्तु अस्तु महोदय. तत्र अन्ये कोऽपि कर्तुम् इच्छन्ति वा अथवा सर्वे कृतवन्तः वा? एतदेव कुर्मः वा अथवा किं किं चिन्तनम्? एतावत् यत् कृतवन्तः तावत् अभ्यासः पर्याप्तं वा अधिकं कुर्मः?
गृहकार्यरूपेण कुर्वन्ति स्म.
अस्तु तर्हि तत्र हा एकविषयः
सर्वे सर्वान् पृच्छन्तु महोदय. मम मम
अस्तु अस्तु पृच्छामि. अस्तु भगिनि अस्तु सत्यमेव अस्तु. किन्तु तत्र एकं तु वक्तव्यमस्ति. तत्र यदि केवलं धातुं पश्यामश्चेत् तत्र क्लेशः भवति. उदाहरणार्थं तत्र वदामि तत्र कुत्र तत्र एकनिमेषः तत्र अधोभागे तत्र कोष्टके अधोभागे तत्र किम् अस्ति तत्र यदि वयम् अधोभागे गच्छामः तत्र अनेकाः धातवः सन्ति खलु. किन्तु तत्र अधोभागे तत्र हा तत्र एकस्य धातोः अनेकानि क्रियापदानि सन्ति इत्युक्ते तत्र एकमेव धातु केवलम् एकस्मिन् गणे भवति इति न. अतः तत्र किं स्वीकृत्वा वक्तुं शक्नुमः तत्र? अस्तु तत्र यदि किञ्चित् किञ्चित् अधो गच्छामश्चेत् तत्र क्लिश् इति अस्ति. तत्र क्लिश् इति धातु नवमे गणे अपि अस्ति, चतुर्थे गणे अपि अस्ति, अपि तदनन्तरं मुच् इति धातुः षष्ठे गणे अस्ति, दशमे गणे अपि अस्ति, अपि तिज् इति धातु दशमे गणे अस्ति, अपि प्रथमे गणे अस्ति, सृज् इति धातु चतुर्थे गणे अस्ति, षष्ठे गणे अपि अस्ति. किन्तु तत्र भेदः अस्ति, धातु समानम् अस्ति किन्तु क्रियापदस्य रूपं तत्र समानं नास्ति. तत्र सृज् इति धातु चतुर्थे गणे तस्य रूपं भवति सृज्यते इति. तत्र विकरणप्रत्ययः चतुर्थे गणे यकारः इति. किन्तु सः एव धातुः सृज् इति धातुः षष्ठे गणे अपि भवति, तुदादिगणे अपि भवति, तत्र सृजति इति रूपं भवति. अतः तत्र केवलं धातु दृष्ट्वा वयं न वक्तुं शक्नुमः कस्मिन् गणे अस्ति इति. धातोः ज्ञानम् अपि आवश्यकम्, अपि क्रियापदस्य रूपस्य ज्ञानम् अपि आवश्यकम्. यदि जानीमः तत्र धातुपाठः यदि वयं कृतवन्तः, सर्वान् धातवान् जानीमः तत्र पाणिनेः धातु आवली यत् अस्ति या अस्ति तां जानीमश्चेत् किमपि क्लेशः नास्ति. किन्तु यदि न जानीमः तत्र क्लेशः भवति. अतः तत्र किं तत्र क्रियापदस्य ज्ञानमपि आवश्यकम् इति. अस्तु, तत्र अतः तत्र किं कुर्मः, अहं चिन्तयामि. एकवारं सर्वे वदन्तु एतावत् यत् कृतवन्तः धातुगणविषये अभ्यासः, तत्र लघुरूपेण परिचयः भवतु इति तावदेव. यदि अग्रे गच्छामः तत्र किं माहेश्वरसूत्राणि अस्ति, अपि सन्धिविषये किं किं कार्यम्, अपि सूत्राणां रूपं कीदृशं, तत्र आगमः कुत्र भवति, आदेशः कुत्र भवति, पूर्वं किम् अस्ति, परं किम् अस्ति, तत् बहु किमपि अस्ति तत्र अग्रे. तत् इदानीं मास्तु, किन्तु केवलं परिचयरूपेण तत्र दशगणाः सन्ति. यदि वयं किमपि क्रियापदं पश्यामः तद् पठति इति तादृशरूपं नास्ति चेत् किं चिन्तनं कुर्मः तस्मिन् सन्दर्भे? अस्तु, पठति इति प्रथमे गणे अस्ति, किन्तु एतद् एषः धातुः प्रायशः प्रथमे गणे नास्ति, अन्यस्मिन् गणे अस्ति, अतः रूपभेदः, तस्य लकारस्य रूपभेदः अस्ति इति चिन्तयितुं शक्नुमः, खलु? हा, तावत् ज्ञानमस्ति चेत् पर्याप्तम् इति भाति इदानीम्. पुनः गत्वा यदि आवश्यकता अस्ति चेत् पुनः तत्र गीतासोपनं तत्र ततः अग्रे गत्वा पुनः एकवारं पुनः अत्र आगत्य तत्र माहेश्वरसूत्राणि इति किञ्चित् पुनः एकवारं दृष्ट्वा पुनः गीतासोपनं गच्छामः. एतत् कुर्मः वा, समीचीनं वा? अस्तु, किं इदानीं तत्र पुनः गीतासोपनमेव गच्छामः वा?
अस्तु महोदय.
अस्तु अस्तु, अतः तत्र कुत्र स्मः वयं, त्वान्तरूपं कुर्वन् स्मः इति मन्ये. इदानीं तत्र त्वान्तरूपस्य अनन्तरं ल्यबन्तरूपम् इति तदपि तत्र आसीत् इति. अतः तत्र कुत्र 134 अस्तु भगिनि, 134 अस्तु, 134. ललिता भगिनी, इदानीं प्रायशः सुलभं भवति तत्र भवत्याः कृते, तत्र गीतासोपानमेव इदानीं कुर्वन् स्मः. गीतासोपाने पेज् 134. चिन्ता मास्तु, चिन्ता मास्तु, केवलं वदामि, केवलं वदामि. अस्तु अस्तु, तर्हि तत्र तत्र कः भेदः, तत्र ल्यबन्तरूपमपि त्वान्तरूपं तयोः मध्ये कः भेदः? उषा भगिनी
आं महोदय
हा कः भेदः ल्यबन्तरूपं कदा भवति त्वान्तरूपं कदा
उपसर्गः अस्ति चेत् लेप् प्रत्यय भवति महोदय
अपि उपसर्ग नास्ति चेत् त्वान्तरूपं अस्तु हा समीचीनम् अतः तत्र किं वयं दृष्टवन्तः तत्र पेज् 134 मध्ये अपि अधोभागे दत्तमस्ति गच्छति इति क्रियापदस्य रूपं गत्वा इति अस्ति आगच्छति इति तस्य उपसर्गसहितक्रियापदम् अस्ति इति कृत्वा तस्य रूपमस्ति आगत्य इति नयति इति नीत्वा इति अस्ति आनयति इति तत्र आनीय इति अपि गृह्णाति इति गृहीत्वा अपि सङ्गृह्णाति इति सङ्गृह्य इति अस्तु अतः तत्र एकः प्रश्नः अस्ति तत्र किमर्थं तत्र एतादृशरूपं यदि उपसर्ग नास्ति चेत् एकं रूपम् अपि उपसर्ग अस्ति चेत् अन्यत् रूपं किमर्थं प्रायशः व्याकरणस्य दृष्ट्या इति न केवलं साधारण तत्र प्रयोजन इति तादृश तस्य कोऽपि प्रयोजनम् अस्ति वा रूपभेदेन कोऽपि चिन्तयितुं
ऊहां करोमि
तावदेव तावदेव तदेव अहं इष्टवान् किमर्थम् इति प्रश्नः भवति खलु
उपसर्ग यदि अस्ति चेत् तदनन्तरं ल्यप् इति रूपं दर्शयितुम् उपसर्ग अस्ति इति
अस्तु तत्र अस्तु तत्र
दर्शयति
उपसर्ग ल्यप् रूपं दर्शयति इति वा
न
ल्यप् इति ल्यप् इति रूपम् उपसर्गम्
उपसर्ग दर्शयति
समीचीनं भगिनि समीचीनं अत्र बहु समीचीनम् अस्ति चिन्तयतु तत्र यदि समस्तपदं कुर्मः यदि समस्तपदं तत्र पद्येषु एतादृशं भवति खलु एकमेव वाक्यम् अस्ति किन्तु तस्मिन् वाक्ये अनेकानि पदानि सन्ति खलु तस्य पदविभजनं कुर्मः तस्मिन् समये क्लेशः भवति तत्र अकारः अस्ति चेत् तत्र एकं पदम् अस्ति तत्र तस्य पूर्वं दीर्घ अकारः अस्ति अतः द्वितीयपदस्य प्रथमवर्णः अकारः अस्ति न वा इति कथं निर्णेतुं शक्नुमः तत्र तत् क्रियापदम् अस्ति तस्य क्रियापदस्य पूर्वम् उपसर्गः अस्ति न वा इति कथं निर्णेतुं शक्नुमः एतादृश प्रयोगेन तत्र यदि उपसर्गः अस्ति चेत् तत्र त्वान्तरूपं नास्ति ल्यबन्तरूपम् अस्ति अतः ल्यबन्तरूपं सूचयति सावधानं क्रियापदे उपसर्गः अस्ति यदि समस्तपदे क्रियापदं भवति तत्र जानन्तु तत्र उपसर्गः अस्ति इति ल्यबन्तरूपं सूचयति समीचीनं भगिनि अतः एव तत्र एतत् मम चिन्तनमस्ति सरलरीत्या किमर्थं ल्यबन्तरूपस्य आवश्यकम् इति अस्तु समीचीनम् अस्तु अत्र प्रायशः एतद् सम्भाषणं पठितवन्तः किन्तु तत्र रूपस्य अभ्यासं कुर्मः वा अथवा किं कुर्मः तत्र अहं चिन्तयामि रूपस्य अभ्यासम् एकवारं कुर्मः तदनन्तरम् अभ्यासः यः अस्ति अग्रे तत् कुर्मः अस्तु तर्हि तत्र शीतल् भगिनी तत्र पठति वा पेज् 135 मध्ये रूपाणि दत्तानि सन्ति
केवलं ल्यबन्तरूपं वा
द्वयोः द्वयोः
गच्छति गत्वा आगच्छति आगत्य नयति नीत्वा आनयति आनीय करोति कृत्वा उपकरोति उपकृत्य स्मरति स्मृत्वा विस्मरति विस्मृत्य लिखति लिखित्वा
लिखति विलिख्य
विलिख्य इति हा समीचीनं भगिनि हा
क्रीणाति क्रीणाति कृत्वा विक्रीणोति विक्रीणीते विक्रीय
हा समीचीनं हा अपि
जानाति ज्ञात्वा विजानाति विज्ञाय
हा
स्थापयति स्थापयित्वा संस्थापयति संस्थाप्य
हा इति प्रेषयति वदतु
प्रेषयति प्रेषयित्वा सम्प्रेषयति सम्प्रेष्य
इति समीचीनं भगिनि अस्तु अग्रे तत्र रघुवीरानन्दमहोदय अग्रे पठति वा तत्र रूपाणि पेज् 135 मध्ये महोदय इदानीं तत्र हरति इति आरभ्य
महोदय
135 इदानीं प्रायश समीचीनम् इति मन्ये रघुवीरानन्दमहोदय वदतु महोदय
135 त्वान्तरूपं हृत्वा उपसर्गसहितक्रियापदं संहरति लबन्तपदं संहृत्य
अग्रे
नमति इति लट्लकारस्य त्वान्तरूपमस्ति नत्वा उपसर्गसहितक्रियापदमस्ति प्राणामति लबन्तरूपमस्ति तस्य प्राणम्य
इति हा समीचीनं महोदय तत्र तत्र तिष्ठति तावत् पर्यन्तं पठतु महोदय
तिष्ठति पर्यन्तम् आम् क्षालयति इति लट् रूपस्य त्वान्तरूपमस्ति क्षालयित्वा उपसर्गसहितक्रियापदमस्ति प्रक्षालयति लबन्तरूपमस्ति प्रक्षाल्य
इति
कर्षति लट् रूपस्य त्वान्तरूपमस्ति कृष्ट्वा उपसर्गसहित अस्ति आकर्षति लवन्तरूपम् अस्ति आकृत्य
तिष्ठति
त्वान्तरूपमस्ति स्थित्वा उपसर्गसहितरूपम् अस्ति उत्तिष्ठति लवन्तरूपम् अस्ति उत्थाय
इति हा समीचीनं महोदय धन्यवादः तत्र त्वान्तरूपसमये वयम् एकः भेदः दृष्टवन्तः तत्र त्वान्तरूपं सर्वदा समानं नास्ति तत्र कुत्रचित् एकः नूतनः अंशः भवति कोऽपि वदति वा कः नूतन अंशः तत्र त्वान्तरूपे त्वान्तरूपे सर्वाणि रूपाणि समीचीनं नास्ति खलु तत्र ईकारः आगच्छति समीचीनं भगिनि तत्र क्षालयति क्षालयित्वा इति भवति अपि तदनन्तरं किं तत्र अन्यत्
लिखति लिखित्वा महोदय
लिखित्वा इति भवति समीचीनं भगिनि अतः तत्र समीचीनम् अतः तत्र वयं दृष्टवन्तः तत्र धातोः द्विविधम् अस्ति इति तत्र सेट् ईकारः आगच्छति चेत् तत्र सेट् इति धातोः नाम अस्ति अपि ईकारः नागच्छति चेत् अनित् इति तत्र भेदः अस्ति इति दृष्टवन्तः किन्तु तादृशभेदः ल्यबन्तरूपे अपि भवति वा तत्र ईकारः मध्ये आगच्छति वा यथा त्वान्तरूपम् अस्ति तादृशे एव लबन्तरूपमपि अस्ति वा
नास्ति अहं चिन्तयामि महोदय
तत्र वर्तते इति तत्र ईकारः आगच्छति वा त्वान्तरूपे
अन्तिमवर्णः यकारः आगच्छति
यकार तु सत्यं सत्यं तत्र हा अस्तु एकः भेदः तु अस्ति क्त्वान्तरूपम् अपि ल्यबन्तरूपं किं तत्र अन्तिम तत्र प्रत्ययः एव भिन्नः त्वान्तरूपे तत्र त्वा इति प्रत्ययः अत्र ल्यप् इति प्रत्ययः अस्ति अतः अत्र यकारः अन्ते आगच्छति समीचीनं भगिनि अपि तत्र वर्तते इति धातु मध्ये तत्र वर्तित्वा इति अस्ति तत्र इकारः आगच्छति वा मध्ये त्वान्तरूपे वर्तित्वा इति ईकार अस्ति अतः तत्र वर्तते इति सेट् इति धातुः इति चिन्तयामः खलु तत्र
वर्तते वर्तित्वा इकारः अस्ति
अपि सेट् इति मन्ये खलु किन्तु तत्र परिवर्तते तत्र किं भवति तत्र
परि उपसर्ग अस्ति
हा परि तु अस्ति तत्र तत्र परि मध्ये इकारः अस्ति तत् तत्र किमपि नास्ति हा किन्तु धातुः मध्ये तत्र वर्तते इति तस्मिन् भागे किम् इकारः अस्ति वा
नास्ति
वृत्य इति परियोगः वृत्य इति तावदेव अपि लिखति इति तत्र लिखित्वा इति अस्ति किन्तु इदानीं तत्र विलिखति तत्र वि उपसर्ग अस्ति तदनन्तरं लि इति अस्ति तत्र ख योगः यकारः ख्य एव अस्ति तत्र कि इति नास्ति अतः तत्र किं तत्र ल्यबन्तरूपस्य निर्माणे धातु सेट् अस्ति वा अनिट् अस्ति वा इति किमपि न चिन्तनं करणीयं केवलं त्वान्तरूपे एव तत्र तव तु अपि तत्र किं त्वा हा तव तु त्वा क्त इति तत्र धातुः यथा तत्र पठित्वा पठितवान् पठितः इति तत्र तादृश कार्ये एव तत्र ईकार ई सेट् अस्ति वा अथवा अनिट् अस्ति वा इति द्रष्टव्यं किन्तु ल्यबन्तरूपे ल्यप् धातुः मध्ये तत्र ईकारस्य किमपि कार्यं नास्ति अतः तत्र तस्य महत्त्वमेव नास्ति अतः सर्वत्र ल्यबन्तरूपे सर्वम् एकम् एव एकमेव रूपम् इति तत्र भेदः नास्ति त्वान्तरूपे ईकारः अस्ति अपि कुत्रचित् भवति ईकारः कुत्रचित् न भवति किन्तु अत्र सर्वत्र समानरूपम् इति तावदेव वक्तुम् इष्टवान् अत्र
अर्थभेदः अस्ति वा महोदय लेबन्त अपि च त्वान्त
न न अर्थभेदः इत्युक्ते धातोः अर्थभेदः अस्ति किन्तु वाक्ये समानकार्यमेव तत्र अहं विद्यालयं गत्वा
रामः जलं पीत्वा क्रीडाङ्गणं गच्छति रामः जलम् आपीय गृहं गच्छति
हा तत्र अतः तत्र धातु परिवर्तनं भवति चेत् सत्यमेव तत्र अर्थः भेदः अपि भवति तत्र उपसर्ग स्थापयामश्चेत् सर्वदा अर्थसमानम् इति नास्ति खलु उपसर्गस्य योजनेन कीदृशकार्यं भवति क्रियापदस्य अर्थभेदे किं किं भवति तत्र केचन उपसर्गेन केचन उपसर्गाः किं कुर्वन्ति तत्र अर्थभेदं न कुर्वन्ति किन्तु
अर्थभेदः नास्ति चेत् किमर्थं लेप् अपि त्वान्त दत्तम् अस्ति
न भगिनि किन्तु तत्र सर्वदा उपसर्गयोजनेन अर्थभेदः न भवति इति वदामि किन्तु तत्र कति उपसर्गाः सन्ति द्वाविंशति इति हा द्वाविंशति किमपि अस्ति तत्र उपसर्गेन अर्थभेदः भवति भगिनि तत्र गत्वा अपि आगच्छति तत्र तु अर्थभेदः अस्ति खलु हा तादृश अर्थभेदः अस्ति अतः तावदेव किन्तु त्वान्तरूपं कदा तस्य प्रयोगः भवति त्वान्तरूपस्य प्रयोगः कदा भवति यदि एकः एव कर्ता कार्यद्वयं करोति प्रथमकार्यं तदनन्तरं द्वितीयकार्यं तस्मिन् समये वयं किं कुर्मः प्रथमकार्यस्य क्रियापदस्य अस्वान्तरूपम् उपयोगं तस्य उपयोगः भवति. इदानीं तत्र क्रियापदे तत्र त्वान्तरूपं कदा भवति? यदि धातु उपसर्गरहितधातुः अस्ति. यदि उपसर्गसहितधातुः अस्ति चेत् तत्र ल्यबन्तरूपं स्वीकरोति खलु. अतः तत्र तावदेव. तत्र अर्थभेदः तु अस्ति. यदि उपसर्गः गच्छति चेत् तत्र अर्थभेदः सामान्यतया भवति एव. अपि तत्र ल्यबन्तरूपं स्वीकरणीयं त्वान्तरूपस्य स्थाने इति तावदेव. हा, द्वयमपि अव्ययमस्ति भगिनि. सत्यं, समीचीनं. हा, त्वान्तरूपं तत्र भूत्वा स्मृत्वा सर्वम् अव्ययम्. अतः तत्र यद्यपि क्रियापदस्य रूपभेदः अस्ति, तत्र रामः विद्यालयं गच्छति अथवा अहं विद्यालयं गच्छामि, रामः गत्वा अपि रामः विद्यालयं गत्वा अथवा अहं विद्यालयं गत्वा अथवा सा विद्यालयं गत्वा एव तत्र गत्वा इति अव्ययम् अस्ति. तत्र क्रियापदस्य रूपभेदः अस्ति, किन्तु तस्य क्वान्तरूपम् अथवा लेबन्तरूपे भेदः नास्ति, अव्ययम् अस्ति इति. समीचीनं भगिनि, सत्यं. हा, अस्तु. इदानीं
कर्मणि प्रयोगे अपि त्वान्त अपि लेप् उपयोगम् अस्ति वा महोदय?
तत्र कर्तुं प्रायशः तत्र तादृशरूपं किमपि उदाहरणं चिन्तयितुं शक्नुमः वा? हा, दृष्ट्वा, समीचीनप्रश्नः भगिनि, दृष्ट्वा वदामि. किन्तु तत्र तत्र प्रायशः तत्र त्वान्तरूपस्य प्रयोगः कर्मणि प्रयोगे अपि भवति वा?
महोदय, अहं वदामि. Having brought the book from the library, he went home.
किन्तु कर्मणि प्रयोग भगिनि?
हेविङ्ग्
ब्रोट् इति तत्र संस्कृते वदतु. वाक्यं किं, वाक्यं किम् अस्ति संस्कृते?
क्रीणित्वा, पुस्तकं क्रीणित्वा, ब्रोट् इस्
नीत्वा. किन्तु तत्र नीत्वा इति तत्र कर्मणि रूपं नास्ति इति. अतः तत्र कर्मणि रूपं कीदृशं भवति इति अपि तत्र मनसि क्लेशः अस्ति. तत्र एकवारं दृष्ट्वा वदामि भगिनि. उषा भगिनि, समीचीनप्रश्नः एव. तत्र तत्र कीदृश किमपि भवती चिन्तयितुं शक्नोति वा? अतः तत्र कस्मिन् सन्दर्भे तस्य आवश्यकता भवति इति मम चिन्तनम् अस्ति. अतः अहं चिन्तयामि प्रायशः नास्ति इति. किन्तु एकवारं परिशील्य वदामि भगिनि. न जानामि इदानीं. किन्तु सम्यक् प्रश्नः एव. कर्मणि प्रयोगे अपि त्वान्तरूपम् अथवा लेबन्तरूपस्य प्रयोगः भवति वा इति. अस्तु, तत्र किं भागद्वयं तत्र कार्यद्वयम् अस्ति. तत्र प्रायशः भगिनी, अहं चिन्तयामि प्रायशः नास्ति इति. कारणं वदामि, किन्तु पुनः एकवारं दृष्ट्वा तत् सत्यं न वा इति पुनः वदामि. किमर्थमिति, तत्र कदा त्वान्तरूपस्य अथवा लेबन्तरूपस्य प्रयोगः भवति इति नियमः अस्ति. तत्र किं क्रियाद्वयं भवेत्, एकनिमिषं भगिनि. तत्र क्रियाद्वयं भवेत्, प्रथमा क्रिया अपि तदनन्तरं द्वितीया क्रिया अपि समानकर्ता भवेत् इति. अतः यदि समानकर्ता अस्ति चेत् यदि कर्मणि प्रयोगः कुर्मः तत्र समानकर्ता भवति किन्तु क्रियापदस्य अन्वयः तत्र किं भवति कर्मपदेन भवति इति कृत्वा तत्र प्रायशः इदानीं तत्र प्रथमवाक्ये कर्मपदम् इति इदानीं कर्तृपदमिव अस्ति इति तत्र प्रायशः अतः अहं चिन्तयामि भगिनि तत्र कर्मपदस्य सामान्यं न भवति वाक्यद्वये अथवा क्रियाद्वये अतः प्रायशः क्वान्तरूपं न भवति इति मम चिन्तनम् अस्ति भगिनि हा अस्तु ललिता भगिनि किं भवति
अहं चिन्तितवती एकं वाक्यं बीङ्ग् द फुड् ब्रॉट् बै हिस् मदर् हि स्टार्टेड् ईटिङ्ग्
किं भगिनि
द फुड् ब्रॉट् बै हिस् मदर् having brought by his mother he started eating
किन्तु तत्र
the food brought by his mother
संस्कृते वदतु भगिनि संस्कृतेन वदतु तत्र
मात्रा by his mother मात्रा आहारं आहारं
अस्तु मात्रा नी आहारं
तृतीया विभक्ति
मात्रा अस्तु हा
तदनन्तरं the food brought by his mother so आहारं मात्रा आहारं नीत्वा
तत्र नीत्वा इति तत्र
नीत्वा नै brought
न तत्र रूपं संस्कृते किं भवति तत्र
द्वे कर्ताः भवति कर्तारो भवतः महोदय
तत्र आहारं
नास्ति
अतः यद्यपि तत्र आहारम् इति अस्ति आहारं मात्रा नीतम् अनीतम् इति वा किमस्ति तत्र
मन्ये
महोदय सत्यं भगिनि एतद् एषः मम संशयः किन्तु सर्वे चिन्तयन्तु उत्तमप्रश्नः एव चिन्तयन्तु यदि कोऽपि एतादृशवाक्यं तत्र उदाहरणं अस्ति चेत् सुलभं भवति अस्तु एतादृशरूपं भवति एतादृशप्रयोगः भवति तत्र सम्यक्तया अवगन्तुं शक्नुमः इति अतः मम मनसि कोऽपि उदाहरणमेव नास्ति किमपि उदाहरणमेव नास्ति इति कृत्वा
किमर्थमित्युक्ते रामः फलं खादति रामेण
फलं खादितं
न खाद्यते न महोदय
कर्मणि खाद्यते
खाद्यते अपि त्वान्तरूपं लेबन्तरूपं लिखामः चेत्
इदानीं तु तत्र नूतन क्रियापदमस्ति खलु तत्र
आम् महोदय रामः खादित्वा आपणं विद्यालयं गच्छति परन्तु कर्मणि प्रयोगे तत्
अस्तु रामः भोजनं खादित्वा विद्यालयं गच्छति हा अस्तु
लिखितं न उचितम् अस्ति न महोदय गच्छति गम्यते इति भवन्ति कर्मणि प्रयोगे
अतः मम चिन्तनमासीत् प्रायशः न भवति इति अपि कर्मपदं समानं न भवति खलु भगिनि तत्र भोजनं खादित्वा विद्यालयं गच्छति तत्र कर्मपदं भिन्नम् अस्ति अतः तत्र कर्मणि प्रयोगे तत्र किं भवति भोजनं रामेण खाद्यते इति अपि तदनन्तरं
कर्मणि प्रयोगे एकम् एकं न
महोदय सत्यं भगिनि अस्तु तत्र
अन्यः विचारः अस्ति महोदय कर्मणि प्रयोगे क्रियापदं कर्म इव गच्छति परन्तु लभन्ते लिङ्गवचनभेदः नास्ति अतः किमर्थम् उपयोगं कुर्मः तत्र
अतः चिन्तनम् अस्ति प्रायशः त्वान्त अपि लेबन्तरूपस्य प्रयोगः न भवति कर्मणि अथवा भावे प्रयोगे इति किमपि उदाहरणमपि न आगच्छति
नूतन व्याकरण
किन्तु तत्र उदाहरणम् आवश्यकं भगिनि,
परन्तु सम्यक् सम्यक् विचारः अस्ति महोदय.
उदाहरणेन विना तत्र किं, यद्यपि सूत्रमस्ति किन्तु तस्य प्रयोगः न भवति चेत्
न भवति महोदय.
अस्तु तर्हि, अस्तु समीचीनम्. इदानीं तत्र वयं किं कृतवन्तः, तत्र धातुगणस्य विषये अस्माकं लघु प्रयासः यत् आसीत् तत् कृत्वा पुनः गीतासोपानमेव आगत्य अत्र स्मः. इदानीं तत्र पेज् 136 मध्ये तत्र अभ्यासः अग्रिमे वर्गे कर्तुं शक्नुमः. तदनन्तरं तत्र किं ल्यबन्तरूपं, तदनन्तरम् अव्ययानि च अपि एव इति यत् इति इति भवति. तदनन्तरं केचन लकाराः अपि सन्ति, लकारः न लकारः इति मन्ये, लकार न विभक्तयः, विभक्तिविषये अपि अस्ति अग्रे. अस्तु तर्हि अन्यप्रश्नः अस्ति वा? अद्य प्रायशः किञ्चित् क्लेशः आसीत् यतः वयं तत्र धातुगणस्य विषये अपि चर्चितवन्तः, तदनन्तरं ल्यबन्तरूपमपि चर्चितवन्तः, अतः मूलविषयः कः इति वक्तुं न शक्नुमः. किन्तु अग्रिमे वर्गे मूलविषयः भवति ल्यबन्तरूपम् इति. अस्तु अस्तु तर्हि अन्यप्रश्नः नास्ति चेत् विरमाम. सर्वेभ्यो नमः, अग्रिमवर्गे मिलामः. नमस्कारः,
धन्यवादः
महोदय. नमस्कारः,
शुभरात्रिः.
धन्यवादः महोदय. धन्यवादः. नमस्कारः भगिनि.
धन्यवादः.